सर्वेभ्यो नमः। अद्य सिद्धान्तकौमुद्याः अत्सन्धिप्रकरणे पुरन्दरपरः इति सूत्रादारभ्य पठामः। सेप्टेम्बर् मासस्य प्रथमदिनाङ्कः, लेक्चर् 18, ऐ थिङ्क्। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयन्नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। सो केन् यू सी द नेक्स्ट् स्क्रीन्? पुनरावर्तनम्। गतकक्ष्यायां यान्तादेशस्य विषये, यान्त एचोयवायावः इति सूत्रेण यान्तवान्तादेशो विहितौ, तथैव अन्येभ्योऽपि सूत्रेभ्यः यान्तादेशः वान्तादेशश्च विधीयते। तत्र निपातनं क्षय्यजय्यौ शक्यार्थे तथा क्रय्यस्तदर्थे इति सूत्रद्वयेन पाणिनिः रूपत्रयं साधयति। यत्र यान्तादेशः आवश्यकः आसीत् किन्तु सूत्रेण अप्राप्तः, तत्र सिद्धं रूपं निपातयति, क्रय्यं जय्यं क्षय्यम् इति। ततः लोपशाकल्यस्य इति सूत्रस्य विषये अधीतम्। यत्र यान्तादेशः वान्तादेशः वा कृतः, तत्र यदि भिन्नयोः पदयोर्मध्ये सन्धिः, तदा लोपशाकल्यस्य इति सूत्रेण वैकल्पिकः लोपः भवति, यकारस्य वकारस्य वा। अवर्णपूर्वयोः पदान्तयोः यकारवकारयोः लोपः स्याद् अशिपरे, यतोहि एज्वर्णाः सर्वदा अश्येव अन्तर्भवन्ति। तस्मात् सर्वदा यत्र वा यत्र कुत्रापि एचोयवायामः इत्यनेन आदेशाः क्रियन्ते चेत्, भिन्नयोः पदयोः मध्ये सः आदेशश्चेत् वैकल्पिकः लोपः प्राप्नोति। यथा हरे एहि इति चेत् हर एहि इति यकारसहितमेकं रूपं, हर एहि इति यकाररहितमेकं रूपम्। लोपशाकल्यस्य इत्यनेन लोपानन्तरं स्वरसन्धयस्तु न भवन्ति। पूर्वत्रासिद्धमिति शास्त्रेण लोपशाकल्यस्य इत्यस्य असिद्धत्वात् स्वरसन्धयः षष्ठाध्याये सन्ति, लोपशाकल्यस्य इति सूत्रं त्रिपाद्यामस्ति, तस्मात् लोपः असिद्धः, असिद्धत्वात् स्वरसन्धयः न प्रवर्तन्ते। ततः अग्रिमः सन्धिः गुणसन्धिः, आद्गुणः इति गुणसन्धिविधायकं सूत्रम्, अदेङ्गुणः इति गुणसंज्ञाविधायकं सूत्रम्, आद्गुणः इति गुणसन्धिविधायकं सूत्रम्। अवर्णात् अचिपरे गुणः स्यात्, एकादेशः स्यात् इति सूत्रार्थः। यथा रमा ईशः रमेशः, गङ्गा उदकं गङ्गोदकम् इति उदाहरणद्वयं दृष्टम्। तृतीयोदाहरणे कश्चन सन्देहः आसीत्। कृष्णऋद्धिः इत्यस्ति, अकारात् अचिपरे गुणः स्यात्, आद्गुणः इत्यनेन गुणः भवेत् इति सूत्रार्थः। किन्तु गुणः इत्युक्ते कः वर्णः भवेत्? अदेङ्गुणः इति सूत्रेण अकार एकार ओकाराणां गुणः इति संज्ञा विहिता, किन्तु अत्र गुणः इत्युक्ते कः? रमा ईशः इत्यस्ति चेत् आकारस्य कण्ठस्थानम्, ईकारस्य तालुस्थानम्, आदेशानां मध्ये एकारस्य कण्ठस्थानमस्ति इत्यतः आन्तरतम्यात् एकारः आदेशः इति निश्चितः। गङ्गा उदकम् इत्यत्र आकारस्य कण्ठस्थानम्, उकारस्य ओष्ठस्थानम्, कण्ठोष्ठस्थानकः ओकारः आदेशो भवति। किन्तु अत्र कः? स्थानी अस्ति अकारः, यस्य स्थानं कण्ठः, ऋकारः, यस्य स्थानं मूर्धः। आदेशेषु सर्वेषु अकार एकार ओकारेषु कण्ठस्थानत्वं समानमस्ति। आल् आफ् दीम् दीस् हेव् ए पार्ट् आफ् कण्ठ, बट् नन् आफ् देम् हेज़् ए पोर्शन् विच् अप्लैस् टु द मूर्ध। So we are unable to decide which should be the adesha when akara is followed by vikara. Right? Idanim sutram asti uran raparaha. Adu eva drishtam asit. Hakara adisha akara uccharanarthaha lan sutre akarascha. Lan sutre, Maheshwara sutreshu lan sutre yaha akaraha tasya anunasikyam asti. Anunasikyatvat upadeshe zananasikvete iti samyayam satyam. प्रत्याहारः र इति प्रत्याहारः निर्मीयते इति दृष्टम्। अस्मिन्नेव सूत्रे तस्य उपयोगः दृश्यते। उरण् रपरः पदत्रयमस्ति। उहु अण् रपरः इति छेदः। उहु नाम ऋकारस्य, ऋकारान्ताः शब्दाः स्मर्यन्ते चेत् यथा पितृशब्दः अस्ति, पितापितरौ पितरः, तत्र षष्ठीविभक्त्यां पितुः पित्रोः पितॄणां, पितुः पितृ इति ऋकारान्तशब्दस्य षष्ठी भवति पितुः, तद्वत् ऋ इति शब्दः ऋकारान्तशब्दः अस्ति चेत् तस्य षष्ठीविभक्त्याम् उहु इति भवति। उहु नाम ऋकारस्य, ऋकारस्य स्थाने इत्यर्थः। रपरः र इति अत्र प्रत्याहारः। हयवरट् इत्यत्र यः रेफः तेन सह लण् इति सूत्रे यः अकारः इत्संज्ञकः तस्य प्रत्याहारे र इति लभ्यते। र इत्यनेन रेफः लकारः इति द्वौ वर्णौ गृह्येते। र इस् अ प्रत्याहार एज़ वी हैव ऑलरेडी सीन् विच् अप्लैस् टु रेफ एण्ड् लकार, विच् टेक्स् टु लेटर्स् विच् इस् रेफ एण्ड् लकार। सो रपरः मीन्स् विच् इस् फालोड् बै रेफ आर् लकार। वाट् अण् उहु अण् रपरः इत्यस्ति। उहु नाम ऋकारस्य स्थाने यः अण् भवति। वेन् एवर् यु आर् रिप्लेसिङ्ग् ऋकार वित् एन् अण् लेटर्, अण् इति प्रत्याहारः अ इ उ त्रयाणां वर्णानां, ऋकारस्य स्थाने एते वर्णाः आदेशाः भवन्ति चेत् रपराः भवन्ति। रपरः नाम अकारः, यदि ऋकारस्य स्थाने आदेशः तदा अर् इति आदेशः। इकारः यदि ऋकारस्य स्थाने आदेशः तदा इर् इति भवति। उकारः आदेशश्चेत् उर् इति भवति। रपरः रः परः यस्मात् सः, दट् विच् हेज् रेफा फालोयिङ्ग्, दिट् इस् वाट् एवर् द आदेश द अण् लेटर् विल् हेव् एन् एडेड् रेफा अलोङ्ग् वित् इट्। वेन् एवर् वि आर् ट्रैङ्ग् टु रिप्लेस् ऋकार वित् एन् अण् लेटर् द अण् लेटर् विल् नाट् कम् अलोन्, इट् विल् ब्रिङ्ग् अ रेफा अलोङ्ग् वित् इट् इस् वाट् दिस् सूत्र टेल्स्। उरण् रपरः ऋकारस्य स्थाने यः अण् सः रपरो भवति सर्वदा। वेर् एवर् देर् इस् एन् अण् विच् इस् रिप्लेसिङ्ग् ऋकार द अण् विल् बि फालोड् बै अ रेफ इस् वाट् इट् टेल्स्, रैट्? सो वै डु वि नीड् अ प्रत्याहार हियर्? ऐ सेड् र इस् नाट् जस्ट् रेफ, इट् इस् आल्सो लकार। सो वै? बिकास् वेन् वि से हियर् ऋकारस्य, ऋकारः ऋलृवर्णयोः मिथः सावर्ण्यं वाच्यम् इति वार्तिकेन ऋकार ऋकारयोः परस्परं सावर्ण्यम् अस्ति। ऋकारः नाम ऋकारस्य अष्टादशभेदाः, ह्रस्वदीर्घप्लुताः, उदात्तानुदात्तस्वरिताः, अनुनासिक अननुनासिका इति। एवं ऋकारस्य द्वादश प्रभेदाः, ऋकारस्य दीर्घः नास्ति, ह्रस्वः प्लुतः, उदात्तानुदात्तस्वरिताः, अनुनासिक अननुनासिकाः। एवं ऋकारस्य ऋकारस्य वा स्थाने यदि अण् भवति, सो बिकास् वि आर् यूसिङ्ग् अ ऋकार, बिकास् ऋकार इस् सवर्ण फोर् ऋ एण्ड् ऋ, वि से दट् इट् इस् रपर, र मीन्स् रेफ एण्ड् लकार। सो ओब्वियस्लि वेन् एवर् वि रिप्लेस् ऋकार वित् अण् इट् विल् बि फालोड् बै रेफ, अर् इर् उर्। सिमिलर्लि इफ् यु आर् रिप्लेसिङ्ग् ऋकार वित् अण् देन् इट् विल् बि फालोड् बै लकार, इट् विल् बि अल् इल् एण्ड् उल्, that is what this sutra tells. Ru iti trimshatah samya ityuktam purvameva drishtam rulravarnayoh mithas savarnyam vachyam ityanena parasparam savarnyam asti rakarasya ashtadasha bhedaha ravarnasya dvadasha bhedaha ahatya trimshat bhedaha. Ru iti trimshatah samya tat sthane yah anna ऋकारस्य लृकारस्य वा स्थाने यः अण् सः रपरस्सन्नेव प्रवर्तते, सर्वदा सः रेफपरः लकारपरो वा भवति इति सूत्रार्थः। तत्र आन्तरतम्यात् कृष्णर्थिः इत्यत्र अल्, अर् टवल्कारः इत्यत्र अल्, एतत् पश्यामः। कृष्णवृद्धिः इत्यस्ति, अस्माकं प्रश्नः आसीत् अकारः ऋकारश्च अस्ति, कः आदेशः भवेत्? स्थानीयस्य अकारः ऋकारश्च। आदेशं पश्यामश्चेदिदानीम् अर् अकार एकार ओकाराः, तत्र अण् भवति अकारः। यदि ऋकारस्य स्थाने अकारः आदेशः भवेत् तर्हि रेफपरः भवेत्, अर् इति स्यात् इति अरुण्डपरः इति सूत्रेण उक्तम्। इदानीम् आदेशः अर् एकारः ओकारश्च, अर् इत्यस्य स्थानं कण्ठः मूर्धा च, अकारस्य कण्ठः ऋकारस्य मूर्धा। इदानीम् आन्तरतम्यं वक्तुं शक्यते, स्थानिनोः कंठः मूर्धा च स्थानम् आदेशस्य च कंठः मूर्धा च स्थानम् तस्मात् अकार ऋकारयोः गुणः अर् इति भवति कृष्ण अर्थिः कृष्णर्थिः इति पुरंडपरः इति सूत्रेण सर्वदा अत्र whenever we are doing a guna between akara and rakara we use both sutras we say ad gunah urandaparah putting them together we get ar as the guna for akara and rakara right so similarly if we go to rakara tava rakarah atrapi akarat achi pare rakarah achi avarna dasi pare gunah ekadeshah syanityanena gunah kah bhaved gunah स्थान स्थानी अस्य अकारः यस्य कंठः स्थानम् लकारः यस्य दन्ताः स्थानम् आदेशेषु इदानीं पुरंडपरः इत्यनेन यदि लकारस्य स्थाने अकारः आदेशः भवेत् तर्हि लपरो भवेत् इति सूत्रार्थः तस्मात् अल् इति एकः आदेशः एकारः ओकारः तत्र आंतरतम्यात् कंठ दन्त उभयस्थानकत्वात् अल् इति आदेशः तवल्कारः इति संधि तदेव उक्तं वीक्षितैः तत्र आंतरतम्यात् कृष्णर्थिः इत्यत्र अर् तवल्कारः इत्यत्र अल् इदानीं कृष्णर्थिः इति पुनः पश्यामः कृष्णर्थिः इति सन्धिः गुणसन्धिस्तु कृतः इदानीं के वर्णाः सन्ति कृष्ण अरुधिः अचोरहाभ्यां द्वे इति सूत्रम् अधीतम् अत्सन्धिप्रकरणे एव अचः पराभ्यां रेफहकाराभ्यां परस्य यरः वा द्वित्वम् अचः परः यः रेफः तस्मात् परः यः यर्वर्णः तस्य विकल्पेन द्वित्वं भवति यथा हर्यनुभवः हरि अनुभवः यण्सन्धौ कृतौ हर्य अनुभवः इति स्थिते यकारस्य द्वित्वं भवति तेन सूत्रेण अत्र द्वित्वे दकारस्य द्वित्वे कृते कृष्ण अर् दु दु धिः दकारस्य द्वित्वे कृते कृष्णद्धिः इति त्रयः दकाराः अर्थात् दु दु धु इति त्रयः वर्णाः सन्ति अचोरहाभ्यां द्वे इत्यनेन द्वित्वं द्वित्वं तु वैकल्पिकः तस्मात् कृष्णर्धिः इति दकारद्वयं युक्तम् एकं रूपं कृष्णद्धिः इति दकारत्रयरूपम् एकं रूपम् इति रूपद्वयं साधितम् इदानीम् अस्यां स्थितौ कृष्णद्भिः कृष्णद्भिः इति स्थिते झरोझरिसवर्णे इति किञ्चन सूत्रमस्ति उच्यते अनेन सूत्रेण पदत्रयमस्ति झरः झरि सवर्णे हलोयमाम्यमिलोपः इत्यतः हलः इति लोपः इति च अनुवर्तते झयोः अन्यतरस्यां च सूत्रेण अन्यतरस्याम् इति अनुवर्तते अर्थात् वैकल्पिकम् इदं सूत्रं लोपः विधीयते एतावत् ज्ञातम् सो जस्ट् वे लुकिङ्ग् एट् इट् यु केन् टेल् सिन्स् इट् इस् अन्यतरस्यां दिस् इस् एन् आप्शनल् सूत्र एण्ड् सिन्स् इट् इस् लोपः देर् इस् अ डिलीशन् सो वाट् आर् द कण्डीशन्स् फार् द डिलीशन् हलः हलोयमाम्यमि लोपः इत्यतः हलः इति अनुवर्तते तच्च पञ्चमी विभक्तौ अस्ति पञ्चम्याः तस्मादित्युत्तरस्य इति सूत्रेण हल्वर्णात् परस्य झरः इति षष्ठी झर्वर्णस्य स्थाने सवर्णे झरि सप्तमी विभक्तिः तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन सवर्णसंज्ञके झर्वर्णे परे अर्थात् देर् इस् अ हल् विच् इस् फालोड् बै अ झर् विच् इस् फालोड् बै अ सवर्ण झर् ओके इन् सच् अ कण्डीशन् लोपः स्यात् लोपः इति प्रथमविभक्तौ विधीयते सूत्रार्थः हलः परस्य झरः लोपः वा स्यात् सवर्णे झरि हलः परस्य पञ्चमी झरः स्थाने लोपः स्यात् वा स्यात् सवर्णे झरि परे इति सूत्रार्थः पश्यामः कृष्णर्थिः इत्यत्र द्वित्वाभावपक्षे इन् केस् वेर् वी हेव् नाट् डन् द द्वित्वा फार् दकार वी हेव् कृष्ण ऋ द् ध् इ इफ् वि डू द द्वित्वा वि हेव् कृष्ण ऋ द् द् धि रैट् सो नौ अत्र रेफः हल् रेफात् परः दकारः ಝರ್ ತಸ್ಮಾತ್ ಪರಃ ಧಕಾರಃ ಸವರ್ಣಃ ಝರ್. ಅತ್ರಾಪಿ ರೇಫಃ ಹಲ್ ದಕಾರಃ ಝರ್ ದಕಾರಃ ಸವರ್ಣಃ ಝರ್. ಸವರ್ಣ್ಯಂ ಕಥಂ ಸರ್ವೇ ಸ್ಮರಂತಿ ಇತಿ ಮನ್ಯೆ ತುಲ್ಯಾಸ್ಯ ಪ್ರಯತ್ನಂ ಸವರ್ಣಂ ಯಯೋಃ ವರ್ಣಯೋಃ ತಾಲ್ವಾದಿಸ್ಥಾನಂ ಆಭ್ಯಂತರ ಪ್ರಯತ್ನಶ್ಚ ಪರಸ್ಪರಂ ತುಲ್ಯಂ ಭವತಿ ತತ್ ಸವರ್ಣ ಸಮ್ಯಂ ಭವತಿ ಇತಿ ಸೂತ್ರಾರ್ಥಃ. ದಕಾರಃ ಧಕಾರಃ ಉಭಯೋಃ ಸ್ಥಾನಂ ದದತಃ ಉಭಯೋಃ ಪ್ರಯತ್ನಃ ಸ್ಪೃಷ್ಟ ಪ್ರಯತ್ನಃ ತಸ್ಮಾತ್ ಉಭಯೋಃ ಸಾವರ್ಣ್ಯಂ ಅಸ್ತಿ. ಅತ್ರ ತು ದಕಾರಃ ದಕಾರ ಏವ ಸಾವರ್ಣ್ಯಂ ಅಸ್ತ್ಯೇವ. ಇದಾನಿ ಹಲಃ ಪರಸ್ಯ ಝರಃ ಸವರ್ಣೇ ಝರಿ ಪರೇ ಲೋಪಃ ಸ್ಯಾತ್ ಇತಿ ಉಭಯತ್ರ ಅಸ್ತಿ. ತಸ್ಮಾತ್ ಅತ್ರ ದಕಾರಸ್ಯ ಲೋಪೇ ಕೃತೆ ಕೃಷ್ಣ ಋ ಧ್ ಇ ಕೃಷ್ಣರ್ ದ್ ಧಿ ಕೃಷ್ಣರ್ಧಿಃ ಇತಿ ಏಕಏವ ಧಕಾರಃ ಏಕಸ್ಮಿನ್ ರೂಪೇ ಕೃಷ್ಣರ್ಧಿಃ ಇತಿ ದಕಾರದ್ವಯಯುಕ್ತಂ ಏಕಂ ರೂಪಂ. ಸೊ ವಿ ಸಿ ಯು ಆರ್ ಡಿರೈವಿಂಗ್ ಟು ವೆನ್ ಯು ಡು ನಾಟ್ ಡೂ ದ ದ್ವಿತ್ವ ಅಂಡ್ ಅಪ್ಲೈ ಲೋಪ ಯು ಗೆಟ್ ಅ ರೂಪ ವಿಚ್ ಹ್ಯಾಸ್ ಒನ್ ಧಕಾರ ದಿಸ್ ಕೃಷ್ಣರ್ಧಿಃ. ವೆನ್ ಯು ಡೂ ದ್ವಿತ್ವ when you do dvitva and then use lopa you end up with a form which was there before dvitva which is with two dakaras. Since lopa is optional, if you do dvitva and do not do the lopa you will also have a form which has three dakaras, right? So finally dvitva bhave lope sati ekadham rupam. So what is the conclusion? When we do not do the dvitva, krishna ruddhihi ityatra guna sandhihi kratah achoraha bhyam dve iti dvitvam na kratam. So you have two dhakaras, lope sati, and then you remove one of the dhakaras, you are left with ekadham, a single dhakara. The rupa has a single dhakara. Asati lope, dvitva lope yorva, dvitham. Lope asati, dvitvam kritam, lopasya nakritaha. Tadakim bhavati, dhakara dvayam asti. Dhakaraha dhakaraha, kevalam gunaha kritaha, ಲೋಪಃ ನ ಕೃತಃ ಅಥವಾ ದ್ವಿತ್ವಂ ಕೃತಂ ಗುಣಂ ಕೃತ್ವಾ ದ್ವಿತ್ವಮಪಿ ಕೃತಂ ಕಿಂತು ಪುನಃ ಲೋಪಶ್ಚ ಕೃತಃ. ದೇರ್ ಆರ್ ಟು ಕೇಸಸ್, ಒನ್ ಥಿಂಗ್ ಯು ಜಸ್ಟ್ ಡೂ ದ ಗುಣ ಅಂಡ್ ಯು ಡೂ ನಾಟ್ ಡೂ ದ ಲೋಪ, ದೆನ್ ವಿ ಹ್ಯಾವ್ ಕೃಷ್ಣರ್ಧಿಃ ವಿತ್ ಟೂ ಧಕಾರಸ್. ಆಫ್ಟರ್ ಯು ಗೆಟ್ ದಿಸ್, ಇಫ್ ಯು ಡೂ ದ್ವಿತ್ವ ಅಂಡ್ ದೆನ್ ಅಗೇನ್ ಡಿಲೀಟ್ ಒನ್ ದಕಾರ, ಯು ಆರ್ ಅಗೇನ್ ಸ್ಟಿಲ್ ಲೆಫ್ಟ್ ವಿತ್ ಟೂ ಧಕಾರಸ್. ಕೃಷ್ಣರ್ಧಿಃ ಸತಿ ದ್ವಿತ್ವೇ ಲೋಪೇ ಚ ಅಸತಿ ದ್ವಿತ್ವಂ ಕೃತಂ ಲೋಪಶ್ಚ ನ ಕೃತಃ ತದಾತು ತ್ರಿಧಂ ತ್ರಯಃ ಧಕಾರಃ ದೃಶ್ಯಂತೆ. ಯು ಡೂ ಗುಣ ಕೃಷ್ಣರುದ್ಧಿಃ ಗುಣಃ ತತಃ ಅಚೋರಹಾಭ್ಯಾಂ ದ್ವೇ ಇತಿ ದ್ವಿತ್ವಂ ಧಕಾರತ್ರಯಮಸ್ತಿ. ಲೋಪಸ್ಯ ವೈಕಲ್ಪಿಕತ್ವಾತ್ ಲೋಪಃ ನ ಕ್ರಿಯತೆ ಚೇತ್ ಕೃಷ್ಣರುದ್ಧಿಃ ಇತಿ ತ್ರಿಧಕಾರ ಇತ್ವಂ ರೂಪಂ ತು ಭವತಿ. ಥೆರ್ಫೋರ್ ಯುವರ್ ಫೈನಲ್ ರಿಸಲ್ಟ್ ಇಸ್ ತ್ರೀ ಫಾರ್ಮ್ಸ್, ಇಟ್ ಇಸ್ ಸಿಂಗಲ್ ಧಾ ಟೂ ದಾಸ್ ಆರ್ ತ್ರೀ, ರೈಟ್? ತವಲ್ಕಾರಃ ಇತ್ಯತ್ರ ಕಿಂ ಭವತಿ ಇತಿ ಪ್ರಶ್ನಃ. ತವ ಲಕಾರಃ ಇತಿ ಸ್ಥಿತೆ ಆದ್ಗುಣಃ ಉಣಂಡಪರಃ ಇತ್ಯನೇನ ಗುಣೇ ಕೃತೆ ತವಲ್ಕಾರಃ ಇತಿ ರೂಪಂ. ತವ ಲಕ್ ಆರಃ ಇದಾನಿ ಲಕಾರಃ ಎಣ್ ಯುವರ್ ಲ ಎಣ್ ವರ್ಣಃ ಕಕಾರಃ ಮಯಿ ವರ್ಣಃ ಮಯಿ ಇತಿ ಯಮಗಣನಂ ಇತ್ಯತ್ರ ಮಕಾರಾದಾರಭ್ಯ ಕಪೈ ಇತ್ಯತ್ರ ಯಕಾರ ಪರ್ಯಂತಂ ಪ್ರತ್ಯಾಹಾರಃ ತತ್ರ ಕಕಾರೋಪಿ ಅಂತರ್ಭವತಿ. ಇದಾನೀ ಯಣೋ ಮಯೋ ದ್ವೇವಾಚ್ಯ ಇತಿ ಆರ್ತಿಕಂ ಆಸೀತ್. ಸುಧ್ಯುಪಾಸ್ಯಃ ಇತ್ಯತ್ರ ದೃಷ್ಟಂ ಯಣೋ ಮಯೋ ದ್ವೇವಾಚ್ಯ ತತ್ರ ಪಕ್ಷದ್ವಯಂ ಅಸ್ತಿ ಇತಿ ಅಸ್ಮಾಭಿಃ ನಿರ್ಣೀತಂ. ಯಣಃ ಇತಿ ಷಷ್ಠೀ ಮಯಃ ಇತಿ ಪಂಚಮೀ ಇತಿ ಚೇತ್ ಮಯಃ ಪರಸ್ಯ ಯಣಃ ದ್ವಿತ್ವಂ. ಯಣ ಇತಿ ಪಂಚಮೀ ಮಯ ಇತಿ ಷಷ್ಠೀ ಇತಿ ಚೇತ್ ಯಣಃ ಪರಸ್ಯ ಮಯಃ ದ್ವಿತ್ವಂ. ಸೊ ವಿ ಸಾ ದಟ್ ದೇರ್ ಆರ್ ಟೂ ಪಾಸಿಬಿಲಿಟೀಸ್ ವಿತ್ ದಿಸ್ ವಾರ್ತಿಕ. ಕೆನ್ ಇದರ್ ಟ್ರೀಟ್ ಯಣ್ ಅಸ್ ಪಂಚಮಿ ಅಂಡ್ ಮೈ ಅಸ್ ಷಷ್ಠಿ, ಇನ್ ದಟ್ ಕೇಸ್ ದ ಮೈ ವರ್ಣ ವಿಲ್ ಗೆಟ್ ದ್ವಿತ್ವ. ಇಫ್ ಯು ಟ್ರೀಟ್ ಮೈ ಅಸ್ ಪಂಚಮಿ ಅಂಡ್ ಯಣ್ ಅಸ್ ಷಷ್ಠಿ, ದ ಯಣ್ ವಿಲ್ ಗೆಟ್ ದ್ವಿತ್ವ. ವಿ ಯೂಸ್ ದ ಸೆಕೆಂಡ್ ಪಾಸಿಬಿಲಿಟಿ ಇನ್ ಸುಧ್ಯುಪಾಸ್ಯ ಧ ಯು ಮಯಃ ಪರಸ್ಯ ಯಣಃ ಯಣ ಇತಿ ಷಷ್ಠಿ ಮಯ ಇತಿ ಪಂಚಮಿ ಇತಿ ಪಕ್ಷೇ ಯಕಾರಸ್ಯ ದ್ವಿತ್ವಂ ಕೃತಂ. ಅತ್ರ ತು ಪ್ರಥಮಃ ಪಕ್ಷಃ ಉಪಯುಜ್ಯತೆ ಯಣ ಇತಿ ಪಂಚಮೀ ಮಯ ಇತಿ ಷಷ್ಠಿ ಯಣಃ ಪರಸ್ಯ ಮಯಃ. ಹಿಯರ್ ವಿ ಯೂಸ್ ದ ಫಸ್ಟ್ ಪಾರ್ಟ್ ವೇರ್ ದೇ ಸೇ ವೆನ್ ಅ ಯಣ್ ವರ್ಣ ಇಸ್ ಫಾಲೋಡ್ ಬೈ ಅ ಮೈ ವರ್ಣ, ದ ಮೈ ವರ್ಣ ವಿಲ್ ಗೆಟ್ ದ್ವಿತ್ವ. ಸೊ ಇನ್ ದಿಸ್ ಕೇಸ್ ತವ ಲ ಕ ಕ ಆರಃ ಕಕಾರಸ್ಯ ದ್ವಿತ್ವೇ ಯಣೋಮಯೋ ದ್ವೇ ವಾಚ್ಯೇ ಇತಿ ವಾರ್ತಿಕೇನ ಕಕಾರಸ್ಯ ದ್ವಿತ್ವಂ ಭವತಿ. अथवा तवल्कारः इत्यस्ति अलक आरः अकारः अच् भवति लकारः यर् भवति ककारः न अच् अनचिच इति द्वित्वविधायकं सूत्रमासीत् अचः परस्य यरः द्वेवास्तः न तु अचि अचः परः यः यर् वर्णः अकारात् परः लकारः तस्य अनचि परे ककारे परे द्वित्वं वा स्यात् इत्यनेन लकारस्यापि द्वित्वं भवितुमर्हति अनचि च इति सूत्रेण तव लु लुकारः ऋत्वविधायकम् अनचि च इति सूत्रं तथा एणो मयो द्वेवाच इति वार्तिकम् उभयमपि वैकल्पिकम् बोत् आफ् दीस् आर् आप्शनल् रूल्स् दट् इस् यु केन् ईदर् डू द्वित्वा फार् ककार आर् नाट् यु केन् डू द्वित्वा फार् लकार आर् नाट् सो फैनलि यूसिङ्ग् द पर्मिटेशन्स् एण्ड् काम्बिनेशन्स् वि एण्ड् अप् वित् मेनि फार्म्स् सो फार् टुडेस् असैन्मेण्ट् So just look at how many forms can we derive from Tavalkaraha. It's very easy, just like what we did in Suthyapasyaha. But I want you to just try writing down the steps for each Rupa. What are the forms which we can derive and what are the steps which would be involved in deriving each Rupa. Okay? So that is about Guna Sandhi. For Guna also we have a single sutra which was Ad Gunaha. Avarna Dachipare Gunaha Syat. This is also a general sutra because it just says Achi. It says when any ach follows akara, we get guna. This is a general sutra. But we know that when akara is followed by akara, we do not get guna. When akara is followed by ekara, we do not get guna. So they are all exceptions which will be told later. Ikoenachi and adgunaha are both general sutras. Right? So we'll move on to the next sandhi, which is vriddhi sandhi. Vriddhi rechi. It is sutram. Atrapi. There are lot of confusions. I mean, there are many people who get confused between Adayan Gunaha and Ad Gunaha, Vriddhiradaich and Vriddhirechi. So please get this into your mind. Adayan Gunaha is Guna Samya Vidhayakam Sutram, Ad Gunaha is Guna Sandhi Vidhayakam Sutram. Vriddhiradaich is Vriddhi Samya Vidhayakam Sutram, Vriddhirechi iti Vriddhi Sandhi Vidhayakam Sutram. Padadvayam asti Vriddhihi. एचि आद्गुणः इत्यस्मात् आत् इति अनुवर्तते एकः पूर्वपरयोः इति अधिकारः अस्त्येव आत् इति पञ्चमी यथा आद्गुणः इत्यत्र आसीत् तथा अत्रापि आद् इति पञ्चमी अर्थात् अवर्णात् परस्य इत्यर्थः एचि इति सप्तमी विभक्तिः एचि परे इत्यर्थः अवर्णात् एचि परे पूर्वसूत्रे किम् उक्तम् अवर्णात् अचि परे इत्युक्तम् अत्र तु एचि परे वेन् अकार इस् फालोड् बै एच् वृद्धिः स्यात् प्रथमविभक्तौ अस्ति तस्मान् विधेयः पूर्वपरयोः एकादेशः स्यात् आद् एचि परे अवर्णात् एच् वर्णयो वर्णेषु परेषु वृद्धिः एकादेशो भवति इति सूत्रार्थः गुण अपवादः इत्युक्तम् उच्यते अपवादः नाम कः इति इदानीं द्रष्टव्यं वृद्धि इस् एन् एक्सेप्शन् टु गुण वाट् इस् एन् एक्सेप्शन् इस् द नेक्स्ट् क्वश्चन् येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति दिस् इस् अ परिभाषा विच् डिफैन्स् बाधक वाट् इस् एन् अपवाद येन नाप्राप्ते यो विधिः आरभ्यते येन यस्मिन् अवश्यप्राप्तौ There are two sutras, say we say Ad Gunaha and Vriddhirechi. If it is the case that when we have two sutras, such that one sutra will apply in all cases of the second sutra. For example, we have Ad Gunaha, Avarnad Achipare Gunaha, Avarnad Echipare Vriddhi. An example which we would like to give to Vriddhi is say Krishna Ekatvam, Krishna Ekatvam. Right? But you see that in this case, Adgunaha can also apply. You see this, Krishna Ekatvam Ityasti, Akarat Ekaraha, Ayam Avarnaha, Ekarastu Ach Apibhavati, Ech Apibhavati. Ekara falls into both categories. You have Ach and you have Ech. So, the question is, will you do Guna or Vriddhi? Is a doubt. Whenever you go for any example for Vriddhi Sandhi, it says Avarnad Echi Pare. Since that H will always be Ach, Guna can always be done. So wherever there is a chance for application of Vriddhi, there is also the chance for application for Guna. but it is not vice versa. If you take Rama Ishaha, Vriddhi will not apply because E is not it. If you take Angodakam, Vriddhi will not apply. So, the condition for one sutra is a subset of the condition for the other. Say, Guna says Ach and Vriddhi says H. So, H is a narrower category than Ach. So, you see that wherever we have Vriddhi, you also have Guna. Have the possibility of Guna. Yena na aprapte. Gune na aprapte. Arthat gune avashyam prapte. Where yo vidhihi arabhyate. Vriddhirechi iti vidhihi arabhyate. Panini is saying Vriddhirechi. In cases where Guna already applies. In all cases where Vriddhirechi can be applied, Guna also applies. In such a case, the narrower case, that is the Vriddhi, will overrule the Guna. That is when we call Apavada. Niravakashatvam Apavadasya Bijam. Vriddhi has no opportunity to apply if you insist on doing Guna everywhere. Thinking that this is Ach, then Vriddhi has no place where it can apply. Because you cannot show a place where Vriddhi can apply but Guna cannot. Right? So since this is the case, Vriddhi is called an exception to Guna. Right? So Apavadatvat Vriddhi Bhavati. We saw a paribhasha. Actually, we skipped a paribhasha in paribhasha prakarana which said, para nityantaranga apavadanam uttarottaram baliyaham. There is a concept called para, something called nitya, something called antaranga, and something called apavada. Uttarottaram baliyaha. The latter is always stronger. So para is weaker than nitya, nitya is weaker than antaranga, and antaranga is weaker than apavada. Means apavada is the strongest sutra. If a sutra is an apavada to any sutra, the apavada sutra will always apply with no regard to any other consideration. Apavada sutra is the strongest sutra if you are taking a set of sutra. Right? So now vriddhihi gunasya apavadaha. Tasmada atra vriddhireva bhavet natu gunaha. Krishna ekatvam ityasya avaranad echipare vriddhihi ekadeshahasyat. Krishna vriddhihi nama kaha bhavet. Akaraha ekarasya sthaninav. Akarasya kanthahasthanam, ekarasya talusthanam. Adeshaha santi akara aikara aukaraha. Akarasya kanthahasthanam, aikarasya kanthatalusthanam, aukarasya kanthoshtham sthanam. Tasmata antaratamyata aikara eva bhavati. Krishna aikatvam, Krishna aikatvam. Hirupam. Evam Ganga okaha. Ityasya cheta akarat echipare. Avaranath, avaranaha nama akarasya ashtadashapi bhedaha. Avaranath echi pare, okare pare, vriddhihi. Atra kanthatalu kanthoshtasthana samyat aukaraha adeshaha gangaukaha. Deva aishwagyam, devanam aishwagyam iti asti cheta. Akara daikare pare, aikaraha vriddhihi adeshaha bhavati. Deva aishwagyam, Krishna utkantyam, Krishna utkantyam. Iti vriddhi sandheha udaharanani. Clear so far? Any doubts? Yeah, please ask. Actually, Yan Sandhi and Guna Sandhi are very simple comparatively because there is only one sutra. There is one sutra which says Yan Sandhi, which is Ikoyanachi. There is only one which says Guna, which is Adgunaha. But if you go to the other, as I said, these are general sutras. That is why Panini makes a general statement. Now, he goes on dealing with apavadas. As we saw in Yantavanta Desha Sandhi, apart from Echoyavayavaha, there were other sutras and vaptikas which told Yantavanta Desha. Similarly, for Vriddhi, there are lots of other sutras and lots of vaptikas which also give Vriddhi. Because Vriddhi is an exception. It is an exception to Guna. And Vriddhi Rechi is not the only exception. It is not just that when Akara is followed by H, you get Vriddhi. There are also other cases where Vriddhi overrules Guna. Right? So, you have to see the other exceptions later. So far, if you have any doubt, you can ask. No doubts? Okay. Apavada is the strongest. Hema is asking which is the stronger in order. So I told apavada is the strongest. If it is not an apavada, we take something called antaranga bahiranga. We'll see what is Antaranga Bahiranga later, but Antaranga would be the next in order. Next to that is Nitya. There is a concept of Nitya versus Anitya. So we take Nitya and then we have Para and Purva. That is easy to understand. The Ashtadhyayi Krama, whichever sutra comes later is stronger. So the order is Apavada, Antaranga, Nitya and Para. अग्रिमं सूत्रम् प्लीज नोट द सूत्र नंबर्स एज वी गो ऑन इको आद्गुणः वाज 87 ऋतिरेची वाज 88 एत्येधत्युत्सु इज 89 ऑब्वियसली इट इज कंटिन्यूइंग द कॉन्सेप्ट ऑफ वृद्धि एकमेव पदम् एत्येधत्युत्सु एति एधति उत्सु इति समस्तं पदम् आद् गुणः इति सूत्रात् आत् इति अनुवर्तते वृद्धिरेचि इति सूत्रात् वृद्धिः एचि इति अनुवर्तते कः अर्थः आत् इति पञ्चमी विभक्तिः अवर्णात् इत्यर्थः एत्येधत्युट्सु इति सप्तमी एतेषु परेषु एति एधति उट् इति त्रयः भागाः सन्ति एतेषु परेषु वृद्धिः आदेशः स्यात् पूर्वपरयोः एकादेशः स्यात् इति सूत्रार्थः इदानीम् एत्येधत्युट्सु इत्युक्तं कः अर्थः एति इत्युक्ते इण् गतौ इति धातुः एति इत्युक्ते इण् धातुः देर् आर् डिफरेण्ट् वेस् इन् विच् पाणिनि मेन्शन्स् अ धातु ओके द टु कामन् वेस् आर् वि से इक्ष्तिपो धातु निर्देशे दे आर् संथिङ्ग् काल्ड् इक् एण्ड् देर् संथिङ्ग् काल्ड् स्तिप् ओके स्तिप् मीन्स् हि आड्स् अ ति प्रत्यय टु द धातु सो एति मीन्स् इन् धातु भवति वुड् मीन् भूधातु अस्ति वुड् मीन् अस् धातु डु नाट् गेट् कन्फ्यूस् वित् अ क्रियापद देर् इस् अ क्रियापद विच् इस् भवति ईस् अस्ति ईस् एति गोस् आल् दीस् आर् क्रियापद द तिङन्ता फार्म् बट् हियर् एति इस् नाट् अ तिङन्ता फार्म् दिस् इस् अ टेक्निक् दिस् इस् अ मीन्स् आफ् indicating a dhatu. When Panini says eti, it means in dhatu. When he says edhati, it means edh dhatu. Right? So eti ityukte in gatau iti dhatu. Edhati ityukte edhavrithau iti dhatu. Echi iti anuvrittam ityuktam. Vidhirechi ityataha echi ityanuvartate. Eti edhati ityetayohu visheshanam. Visheshanam bhavati ityataha it is Eth is a qualifier of Ethi and Edhati. It means Edhadau, Indhadau, Edhadau cha pare. Ityartha. He says when Akara, Aath, Ethi Edhatyohu parayohu. When Akara is followed by some form of Indhatu or some form of Edhatu which begins with H. Okay. We see why all this qualification is later. The artha we got so far is there is avarna which is followed by an in dhatu or edh dhatu which begins with an h letter which begins with ekara basically. Oot it is samprasaranam. Oot is a special thing. It is a samprasarana which comes for vah dhatu. Vah oot it is utrena samprasaranam iti vidhiyate. We'll see about samprasaranas later in shabdadhikara. For now, just see that there is something called oot, okay, in which you hear the oo. So, avaranat, ezadyohu etyedhatyohu, ooticha pare, vrithihi ekadeshah syat. So, when akara is followed by in or edhadhatus beginning with h or oot, when akara is followed by oot, we get vrithi as the ekadesha. उदाहरणं पश्यामः उप एति इत्यस्ति उप इत्युपसर्गः एति इति इण् धातोः इदानीम् इण् धातोः लट्लकारे प्रथमपुरुषे एकवचने एति इति रूपम् उप अकार एकारः अस्ति अवर्णः अवर्णात् इण् धातौ परे एति इस् अ फार्म् आफ् इण् धातु एण्ड् इट् इस् एजादि दट् इस् इट् बिगिनिङ्ग् वित् एन् एच् लेटर् अवर्णात् एजादौ इण् धातौ परे पूर्वपरयोः वृद्धिः एकादेशः स्यात् सो यु हाव् इफ् इट् इस् वृद्धि अगेन् अ एण्ड् ए आब्वियस्लि विल् बि ऐ उपैति इति रूपम्। एवमेव उप इत्युपसर्गात् एधते एधते इति एधधातोः लट्लकारे प्रथमपुरुषे एकवचनम्। एधधातुः आत्मनेपदि, इट्स् अ नित्य आत्मनेपदि, सो द लट्लकार फॉर्म इज ऑलवेज एधते। एधति इज यूज्ड ओनली टू सिग्निफाई एधधातु। ओके, सो उप एधते, उप अ एधते, अवर्णात् एजादौ एधधातौ परे पूर्ववद् वृद्धिः एकादेशः स्यात्, ऐकारः उपैधते इति रूपं सिद्ध्यति। पृष्ठ ऊहः इत्यस्ति। ऊहः इति वाहधातुः, वाहयति इत्यर्थे ऊहः इति रूपं सिद्ध्यति। नाट् वरी अबौट् हौ वि गाट् ऊह, फर् नौ ऊह, द ऊ इन् ऊह इस् ऊट्। अवर्णात् ऊठिपरे वृद्धि एकादेशः स्यात् इत्युक्ते पृष्ठ ऊहः, पृष्ठ ऊहः इति रूपं सिद्धम्। एतेधद्युट्सु, व्हेन अकार इज फॉलोड बाय एति एधति और उट, वी गेट वृद्धि एस द एकादेश। नाउ इफ यू हैव बीन फॉलोइंग मी वेल, यू शुड हैव अ क्वेश्चन। एनीबडी हैज एनी डाउट हियर एज टू व्हाई दिस सूत्र वाज नीडेड? आई आल्सो गिव इट क्लू। कैन एनीबडी थिंक ऑफ अ well, I don't know, a discrepancy in this? Why do we, what's the point of etyadhatyutsu? They say there are always, in Shastras they say there are two kinds of doubts. One which the student can have by himself or herself. And the other is called Uttapyakanksha, where the teacher has to raise a doubt and then clarify it. Okay? The Shastras are generally like that, because thinking is not always advanced enough to actually think of a doubt. But this is one case where a doubt could be obvious, so I am asking. Okay, not bad. Okay, let's see. Irija mami. She. Hello. Ha. Right. Ha. Okay. Ha. Ha. Well, I am saying the sutra is not need, perhaps not needed in some cases. Right. Why? Is my question, which Venkatramanji has answered. So, if anybody else can try that out. No? Okay. So let me, as usual, raise a doubt in you. If we look at, somebody has raised their hand. Hira Lalji. Huh. How is your avayavaya? No, no, no. How would Echoyavayavaha play there? Echoyavayavaha tells Echaha Achipare. The A should be the Purvavarana and Ach should be the Paravarana. So Echoyavayavaha cannot apply here. Right? Okay. Ha, no problem. Krishnanji? So, right. Correct. Do you already exactly? So, that was the question. So, if you look at the example which have been given for Etetatyuksha, this is fine. Prashtha Uhaha. If this sutra were not there, if Etyadha Tyutsu were not there, what would have happened here? Akarat ukare pare, avarna dachi pare, gunaha syat. You would have got guna. To prevent that guna, Panini says, no, if it is oot, if akara is followed by oot, preventing guna, vriddhi will happen. So you get prashthauhaha. But what is the need of doing that for upaidhate or upaiti? Upa edhate. Even without this sutra, if we apply vriddhi rechi, avarna rechi pare vriddhi hisya, you get upaidhate. You also get upaiti. So what is the requirement of including eti and edhati in this sutra? Is the question. Including oot is fine, because oot is, it is needed to prevent guna when akara is followed by oot. But why would he go to the trouble of including eti and edhati in this, if this could already be done by vriddhi? You can already apply vriddhi rechi and get vriddhi here. You get the required form, which is upaiti or upaidhate. So why do we need eti edhati utsu? That's a prashna. Iti prashna. Prashna gyata khalu. I hope you got the question. We'll see what could be the answer. Yes. Pararupa gunapavadaha. Vriddhihi kevalam gunapavadaha. Kintu etyedhatyutsu iti avriddhihi sa pararupa gunapavadaha. Problem is in upaiti and upaidhate. There is one more sutra further on which tells engi pararupam. Upasargadakarat ejadav dhato, engadav dhato pare pararupam ekadeshaha syat. It's a sutra. The sutra tells when the akara of an upasarga is followed by a dhatu beginning with ing, then instead of vriddhi, you get pararupa. Engi pararupam iti vriddhehe apavada sutram. So it is a series of general exception. So engi pararupam is an exception to vriddhi. It tells if there is an upasarga ending with a, which is followed by a dhatu beginning with ing, then instead of vriddhi we get pararupa. An example for that is pra ejate. Akarat echi pare vriddhau praptayam engi pararupam ityanena pararupe prejate iti bhavati natu prajate evam upa oshati ityasti chete uposhati iti bhavati. Similarly, since engi pararupam can apply here, upa eti avarnantad upasargat engadav dhatav pare. Here you have an upasarga ending with a, which is followed by a dhatu beginning with ing. So in this case, by engi pararupam, you should get pararupa. To prevent that pararupa, he again tells vriddhi. Here actually vriddhi will apply and you get upaiti. Clear? So it is pararupapavadaha, not gunapavadaha. If engi pararupam were not there, then we could have done vriddhi. But since that is an apavada to vriddhi, you should have done engi pararupam. To prevent that, again he includes eti and edhate. If the dhatu happens to be ind dhatu or etha dhatu, then you won't get pararupa, you get again guna. Clear? Upaiti upaidhate ityanayohu engi pararupam iti praptasya pararupasya apavadaha. Prashthauhaha ityatra adgunaha ityasya apavadaha. So etyedha tyutsu is an exception to two sutras. One is adgunaha and the other is engi pararupam. Clear? Gani. Sutratham pashyantu etyedhatyutsu. Avaranat ejadyohu etyedhatyohu utita pare. Vriddhihi ekadeshahasya. It is sutratha. When avarana is followed by inadhatu or ejadhatu, which is ejadi, then you get vriddhi is what sutra tells. Why do you need that ejadi? Because inadhatu, if you look at the forms, it is always ejadi. Eti itaha enti. Oh sorry, not always ejadi. Sorry. Ejadhatu at least. In case of inadhatu at least, there is a thing. Eti itaha enti are the forms. Eti begins with A, but itaha does not begin with A. So he says, you get vriddhi only when the ind dhatu begins with ekara. but why for edha dhatu? The question, because edha dhatu always starts with a or I. So the question is why edha dyo kim? Says upetaha ma bhavan preditat. Upetaha upa itaha. यथा मया इदानीमेव उक्तम् इतः इति इन् धातोः लट्लकारे प्रथमपुरुषे द्विवचनस्य रूपम् एति इतः यन्ति इतः इत्यस्ति चेत् इदानीम् उप इतः इत्यत्र किं करणीयम् गुणः करणीयो वा वृद्धि करणीया वा इति प्रश्नः शुड् वी डू गुणा हियर् आर् वृद्धि इफ् यु डु नाट् से एजाद्योः एत्येधद्योः इफ् एच् इस् नाट् अ विशेषण फार् एति एण्ड् एधति देन् हियर् आल्सो You will need to do vriddhi and say upaitaha. But the form is not upaitaha, it is upetaha. So get adgunaha. Why? Because ejadyoho etyadhatyoho iti uktam palenina. Yada indhatuhu ejadihi bhavati tadaiva vriddhihi. Tathaiva yada edhatuhu ejadihi bhavati tadaiva vriddhihi. Udaharanam ma predidhat ityasti. प्रेधिदत् इति प्र इति उपसर्गपूर्वात् प्र इदिधत् इत्यस्ति एधधातोः णिजन्तस्य लुङि प्रथमपुरुषैकवचने अडागमनिषेधे सति प्र इदिधत् इति रूपम् सो इदिधत् इस् अ काम्प्लिकेटेड् प्रक्रिया सो डोण्ट् वरि अबौट् दट् नौ इन् फार् एधध दिस् इस् एधधातु ओके दिस् इस् डिरैव्ड् फ्रम् द एधधातु यु डू णिजन्त निच् फार् एधधातु एण्ड् देन् derive it in lung lakara. There is an adagama nishedha when you have ma. So in such a case you will have pra ididhat where this is not ejadi. Right? Just like upa itaha, this is pra ididhat. Atra edhadhatu asti, kintu saha ejadihi nasti. Tasmat yatra edhadhatuhu ejadihi bhavati, tatra eva vrittihi. Ityartham ejadyohu ityuktam. So, if you remember this, this is what we call this ejadyo hukim upayataha mahabhavan predidhat. You see that in lot of sutras in the Kaumudi. This is what we call dalakritya. Dalakritya means we split up the words of the sutra and check if each word is needed. If he says etyedhatyutsu vriddhirechi iti anuvartate ekapura prayohu iti adhikaraha. So you have all these words in the sutra, are all these words needed? Is the question. So can we omit any sutra, any word and see what happens? So he says for in all such cases he will ask a question, ejadyohu kim? Why did Panini say echi? He could have just said etyedhatyohu when it is followed by ejadhatu or indhatu. What would have happened? Upetaha predidhat ityatra rupasithihi. Then he says, Padikshitar, there would have been a problem in upayataha and predithat if this were not there. Whenever ezadyohu kim, there is a question like this, it means what will happen if we take this out? What will happen if we take that echi out? What will happen? You will not get upayataha. You will have to get upayataha. We will not get predithat. It would have to be predithat. So, this is needed, is the conclusion. We need that ezadyohu etyedhatyohu uticha pare. Clear? Im vriddhi sandhehe dvitiyam sutram etyedhat yutsu avaranat ejadyohu etyedhatyohu utichapare vriddhihi ekadeshah syat pararupa gunapavadaha atre vartikani santi mahuni vartikani santi akshad uhinyam upasankhyanam akshat uhinyam akshashabdat uhini shabde pare अक्षात् इति पञ्चमी ऊहिन्याम् इति सप्तमी अक्षशब्दात् ऊहिनी शब्दे परे उपसंख्यानम् नाम वृद्धेः वृद्धिः वक्तव्या अक्ष ऊहिनी इत्यस्ति अकारात् अचि परे गुणः अकारात् ऊकारे परे गुणः प्राप्नोति तं बाधित्वा अनेन वार्तिकेन वृद्धिः विधीयते अक्षौहिनी नत्वे सति अक्षौहिणी इति रूपम् गुणापवादः सो इन् द अब्सेन्स् आफ् दिस् वार्तिका Aksha plus Uhini would have resulted in Akshohini, but the Rupa which is actually in use is Akshauhini with a Vriddhi. So for that Vriddhi we have a Vartika, Akshad Uhinyam Upasankhyanam. Yeah, this is pretty easy. There is only one form which is derived using this, which is Akshauhini. Swadire Rinohu iti aparam Vartikam. పదద్వయం అస్తి స్వాత్ ఈర ఈరిణో వృద్ధిరేతి ఇత్యతః వృద్ధి ఇత్యనువర్తతే స్వాత్ ఇది పంచమి స్వశబ్దాత్ ఈర ఈరిణో ఇది సప్తమీ ద్వివచనం ఈరేరిణో పరయో వృద్ధి స్యాత్ స్వశబ్దాత్ ఈర శబ్దే ఈరిన్ శబ్దే చ పరే వృద్ధి ఏకాదేశ స్యాత్ ఇది వార్తికార్థః ఈర శబ్ద ఈరిన్ శబ్దశ్చ కథం నిష్పన్న ఇది చేత ఈర గతౌ ఇది ధాతు బోత్ దీస్ వర్డ్స్ ఈర అండ్ ఈరిన్ ఆర్ డిరైవ్డ్ ఫ్రమ్ అ ధాతు విచ్ ఇస్ ఈర గతౌ ఇట్ మీన్స్ టు గో రైట్ నౌ అస్మాత్ ధాతోః భావే ఘై ప్రత్యయ కృతే ఈరః ఇది రూపం నిష్పద్యతే ఈరః ఇస్ డిరైవ్డ్ ఫ్రమ్ ఈర ధాతు బై అప్లైయింగ్ ద సఫిక్స్ ఘై కః అర్థః స్వచ్ఛందం గమనం మూవింగ్ అబౌట్ యాజ్ one likes is called iraha. Irin is also derived from the same dhatu. The suffix is different. Tachilya ninif pratyaha. Irin iti bhavati. Striyam irini iti bhavati. Svachandam iritum shilam asyaha. Irini is somebody who always moves about as she likes. So this actually, this svairini is a shabda which is used in a derogatory sense. Svairi or Svairini, you have both lingas. It's a person who does as he pleases without caring for any rules or any dharma or any niyama. Okay, that person is called Svairin or Svairi or Svairini. Okay, so Sva Shabdata Ira Shabdaha. As you can see, Akara Dachipare Gunaha Gunasya Praptihi Asti Gunam Badhitva Atra Vrithihi Svairaha. ఏమేమ స్వ ఈరిణి ఇత్యస్తి చేత అకారాదీకారే పరే గుణ ప్రాప్త గుణం బాధిత్వా వృద్ధి నామ ఐకార స్వైరిణి సో దిస్ సూత్ర ఇస్ ఆల్సో అన్ ఎక్సెప్షన్ ఫార్ గుణ దిస్ రూపస్ కెనాట్ బి సాల్వ్డ్ విత్ కెనాట్ బి డిరైవ్డ్ విత్ వృద్ధిరేచి బికాస్ ఈకార ఇస్ నాట్ ఏజ్ సో పాణిని హ్యాడ్ టు ఆర్ సారీ కార్త్యాయన హ్యాడ్ టు ఇంట్రొడ్యూస్ అ స్పెషల్ వార్తిక సేయింగ్ స్వాధీరేరిణో స్వాత్ స్వశబ్దాత్ ఈర శబ్దే ఈరిన్ శబ్దే పరే వృద్ధి ఏకాదేశ స్యాత్ స్వైర స్వైరిణి ఇది రూపద్వయం సిద్ధ్యతి ఓకే వన్ మోర్ వార్తిక షుడ్ టేక్ క్వైట్ అ లాంగ్ టైమ్ టు ఎక్స్ప్లెయిన్ సో ఐ థింక్ యూ కెన్ స్టాప్ హియర్ ఇఫ్ ఎనీబడి హ్యాస్ ఎనీ డౌట్స్ యూ కెన్ ఆస్క్ yes correct but exactly true but Dikshita does not want to deviate from the main topic which is vriddhi is happening I mean, he could have chosen to introduce Pararupa and then introduce this sutra and there might be other sutras for Pararupa. So it is a break-in topic. So, I mean, it's always a difficult thing to decide what should come where. So Dikshita has gone in most cases where he says Prakarana. Whatever Prakarana he begins, he tries to end it. Say he began the Dvitva Prakarana there, so even though the other Dvitva Sutras were not needed, he just introduced. So he began the Vriddhi here, so he is just trying to cover everything which deals with Vriddhi and he perhaps relies on the teacher to explain what is Pararupa. Okay. Thanks, Venkatrana. So I think we can stop here. So just look back at Krishnadhihi and Tavalkaraha and look at how many forms we can derive using those. So we'll continue with the other Vriddhi Sandhi sutras and Vartikas in the next class. Yanakshara samam nayam adhigamya maheshwarat krutnam vyakaranam proktam tasmai paninaye namaha వాక్యకారం వరరుచిం భాష్యకారం పతంజలిం పాణినిం సూత్రకారం చ ప్రణతోస్మి మునిత్రయం మునిత్రయం నమస్కృత్య తదుక్తిః పరిభావ్య చ వైయాకరణ సిద్ధాంత కౌముదీయం విరచ్యతే